अथ सप्तदशः सर्गः। अथ पञ्चभिः पार्थं विशेषयन् षड्भिः कुलकमाः अथेत्यादिभिः। अथ पदामुद्धरणक्षमेषु मित्रेष्विवास्त्रेषु तिरोहितेषु धृतिं गुरुश्रीर्गुरुणाभिपुष्यन् स्वपौरुषेणेव शरासनेन। अथेति अथ जयलक्ष्मीप्रत्याकाङ्क्षानन्तरम् आपदाम् उद्धरणक्षमेषु आपन्निवारणसमर्थेषु अस्त्रेषु प्रस्वापनादिषु तादृशेषु मित्रेष्विव तिरोहितेषु अन्तर्हितेषु सत्सु गुरुणा महता स्वपौरुषेणेव तादृशेन शरासनेन धृतिं धैर्यम् अभिपुष्यन् वर्धयन् अद्यापि धनुषि पौरुषे च सति कियान् अयं किरातः इति धैर्यम् अवलम्बमानः इत्यर्थः। अत एव गुरुश्रीः प्रवृद्धशोभासम्पत्तिः पद्मा मा लक्ष्मीः श्रीर्निगद्यते इति शाश्वतः। भूरिप्रभावेण रणाभियोगात् प्रीतो विजिह्मश्च तदीयवृद्ध्या स्पष्टोऽप्यविस्पष्टवपुः प्रकाशः सर्पन्महाधूम इवाद्रिवह्निः। भूरीति पुनश्च भूरिप्रभावेण महानुभावेन सह रणाभियोगात् युद्धलाभात् प्रीतः तदीयवृद्ध्या शत्रुवृद्ध्या विजिह्मः विच्छायश्च तथा स्पष्टः दीप्त्या प्रज्वलन्नपि अविस्पष्टः वपुःप्रकाशः यस्य सः। कुतः सर्पन् प्रसरन् महान् धूमः यस्य सः अद्रिवह्निरिव स्थितः। तेजः समाश्रित्य परैरहार्यम् निजम् महन्मित्रमिवोरुधैर्यम् आसादयन्नस्खलितस्वभावम् भीमे भुजालम्बमिवारिदुर्गे। तेज इति पुनश्च परैः अरिभिः अहार्यम् अभेद्यम् निजम् स्वकीयम् महत् तेजः वीर्यम् मित्रमिव समाश्रित्य अत एव भीमे भयानके अरिरेव दुर्गम् तस्मिन् अरिदुर्गे शत्रुसङ्कटे अस्खलितस्वभावम् अचलशीलम् उरु महद्धैर्यम् भुजालम्बमिव हस्तावष्टम्भमिव आसादयन् प्राप्नुवन् ईदृशे सङ्कटेऽपि महावीरत्वात् धैर्यमत्यजन् इत्यर्थः। वंशोचितत्वादभिमानवत्या सम्प्राप्तया सम्प्रियतामसुभ्यः समक्षमादित्सितया परेण वध्वेव कीर्त्या परितप्यमानः। वंशेति पुनश्च अभिमानः ममताबुद्धिः तद्वत्या विषयतया कर्मणि कर्तृधर्मोपचारः अभिमानास्पदेन इत्यर्थः। अन्यत्र कुलशीलादि अभिमानवत्या वंशोचितत्वात् स्वकुलानुरूपत्वात् असुभ्यः प्राणेभ्यः अपि सम्प्रियताम् सम्प्राप्तया परेण शत्रुणा अक्ष्णोः समीपे समक्षम् अक्ष्यग्रतः अव्ययीभावे शरत्प्रभृतिभ्यः इति समासान्तः टच् प्रत्ययः। आदातुम् ग्रहीतुम् इष्टया आदित्सितया आजिहीर्षितया इत्यर्थः। आङ्पूर्वात् ददातेः सन्नन्तात् कर्मणि क्तः वध्वेव कीर्त्या हेतुना परितप्यमानः कर्तरि शानच् हेतौ इति तृतीया कन्यया शोकः इतिवत् पतिं नगानामिव बद्धमूलम् उन्मूलयिष्यंस्तरसा विपक्षम् लघुप्रयत्नम् निगृहीतवीर्यः त्रिमार्गगावेग इवेश्वरेण पतिमिति पुनश्च नगानां पतिं हिमवन्तम् इव बद्धमूलं विपक्षं शत्रुं तरसा बलेन उन्मूलयिष्यन् उत्पाटयिष्यन् किञ्च त्रिभिः मार्गैः गच्छतीति त्रिमार्गगा गङ्गा उत्तरपदसमासः तस्याः वेग इव ईश्वरेण लघुप्रयत्नम् अल्पप्रयासं यथा तथा निगृहीतवीर्यः प्रतिबद्धशक्तिः हतास्त्रशक्तिरिति यावत् पुरा किल हिमाद्रिविदलनाय गगनात् पतन्तं गङ्गाप्रवाहं गङ्गाधरः निजजटाजूटेन निजग्राहेति पौराणी कथा तद्वदित्यर्थः संस्कारवत्वाद्रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु अयं यथार्थेषु शरेषु पार्थः शब्देषु भावार्थमिवाशसंसे संस्कारेति एवम्भूतः पार्थः संस्कारवत्वात् संस्कारः चित्तवासना अन्यत्र साधुत्वम् असाधूनां प्रयोगनिषेधादिति भावः अथवा संस्कारः व्युत्पत्तिः तद्वत्वात् चेतः रमयत्सु प्रयोगः सन्धानमोक्षादिः शिक्षा अभ्यासः गुणः तदाहितः अतिशयः मौर्वीवा अन्यत्र तु प्रयोगः अभियुक्तव्यवहारः शिक्षा अभ्यासः गुणाः स्वस्वस्थानकरणादयः श्लेषप्रसादादयो वा ते भूषणं येषां तेषु यथा यथाभूताः अर्थाः येषां तेषु यथार्थेषु अन्यत्र नियतार्थेषु शृण्वन्ति हिंसन्तीति शराः तेषु जयं तन्निर्वाहकत्वात् तदाधारत्वविवक्षायां सप्तमी शब्देषु पदेषु भावः प्रवृत्तिनिमित्तं सामान्यादिः स एव अर्थः तमिव आशसंसे आचकाङ्क्षे शास्तिशंसत्योः आङ्पूर्वयोः इच्छायाम् आत्मनेपदम् उपसङ्ख्यानात् यथा शाब्दिकाः शब्दैः अर्थं साधयन्ति तद्वत् अयं शरैः जयं साधयितुम् इयेष इत्यर्थः भूयः समाधानविवृद्धतेजाः नैवं पुरा युद्धमिति व्यथावान् स निर्ववामाश्रममर्शनुन्नम् विषं महानाग इवेक्षणाभ्याम् भूय इति भूयः पुनरपि समाधानेन युद्धाय मनोव्यवस्थापनेन विवृद्धतेजाः प्रवृद्धप्रतापः पुरा पुरातनं युद्धम् एवम् इत्थं शक्तिसाधकरं न भवतीति हेतोः व्यथावान् परितापवान् सः अर्जुनः ईक्षणाभ्यां दृष्टिभ्यां महानागः महासर्पः विषमिव अमर्षनुन्नं क्रोधोत्थापितम् अस्रम् अश्रु निर्ववाम निर्जगार सात्विकानां रससाधारण्यात् रौद्रे अश्रूदयोक्तिः स्तंभस्वेदोथ रोमाञ्चः स्वरभेदोथ वेपथुः वैवर्ण्यमश्रुप्रलयः इत्यष्टौ सात्विकामताः तस्याः वायासविलोलमौलेः संरम्भताम्रायतलोचनस्य निर्वापयिष्यन्निव रोषतत्तम् प्रश्नापयामास मुखं निदाघः तस्येति आहवायासेन युद्धायासेन विलोलमौलेः स्रस्तकेशबन्धस्य चूडाकिरीटं केशाश्च संयतामौलयस्त्रयः इत्यमरः संरम्भताम्रे कोपारुणे आयते विस्तृते लोचने यस्य संरम्भः सम्भ्रमे कोपे इति विश्वः तस्य अर्जुनस्य रोषतप्तं मुखं निदाघः घर्मः निर्वापयिष्यन् शिशिरीकरिष्यन्निवेति उत्प्रेक्षा प्रश्नापयामास शिशे च स्वेदं जनयामास इत्यर्थः स्नातेः मित्वविकल्पात् ह्रस्वविकल्पः क्रोधान्धकारान्तरितो रणाय भ्रूभेदरेखाः सबभार तिस्रः घनोपरुद्धः प्रभवाय वृष्टेः ऊर्ध्वांशुराजीरिव तिग्मरश्मिः क्रोधेति क्रोधः अन्धकारः इव तेन अन्तरितः आवृतः सः अर्जुनः घनोपरुद्धः मेघावृतः तिग्मरश्मिः रविः वृष्टेः प्रभवाय वर्षणाय तिस्रः ऊर्ध्वांशूनां राजीः इव अर्कस्य ऊर्ध्वांशुरेखोदयः वृष्टिलिङ्गमित्यागमः रणाय रणप्रवृत्तये तिस्रः त्रिसङ्ख्याः भ्रूभेदः भ्रूभङ्गः तस्य रेखाः बभार सप्रध्वनय्याम्बुदनादि चापम् हस्तेन दिङ्नाग इवाद्रिशृङ्गम् बलानि शम्भोरिषुभिस्तताप चेतांसि चिन्ताभिरिवा शरीरः स इति सः अर्जुनः अम्बुदवत् नदतीति अम्बुदनादि कर्तर्युपमाने इति णिनिः चापं दिङ्नागः दिग्गजः अद्रिशृङ्गमिव हस्तेन करेण प्रध्वनय्य ध्वनयित्वा शम्भोः बलानि सैन्यानि अशरीरः अनङ्गः कामः चेतांसि युवमनांसि चिन्ताभिः प्रयोजनध्यानैरिव इषुभिः तताप तापयामास तपतिः सकर्मकः अत्र इषुशब्दः स्त्रीलिङ्गः अन्यथा उपमानोपमेययोः भिन्नलिङ्गतादोषः स्यात् पत्रीरोप इषुर्द्वयोः इत्यमरः सद्वादितेवाभिनिविष्टबुद्धौ गुणभ्यसूयेव विपक्षपाते अगोचरे वागिव चोपरे मे शक्तिशराणां शितिकण्ठकाये सद्वादितेति अभिनिविष्टा शास्त्रनिश्चिता बुद्धिः यस्य सः तस्मिन् अभिनिविष्टबुद्धौ शास्त्रनिष्ठितमतौ विषये सद्वादिता प्रामाणिकार्थसमर्थकता इव न हि सम्यगभ्यस्तशास्त्रं प्रति सद्वादी अपि शक्नोतीति व्याचक्षते केचित् अन्ये तु अभिनिविष्टबुद्धौ आग्रहाविष्टचित्ते विषये सद्वादिता हितोपदेष्टृत्वम् इव नहि आग्रही हितं गृह्णातीति भावः विपक्षपाते वीतरागे विषये गुणाभ्यसूया गुणासहिष्णुता इव स हि समदर्शी द्विषन्तमपि न द्वेष्टीति भावः अगोचरे अवाङ्मनसगोचरे ब्रह्मणि वागिव यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इति श्रुतेः इति भावः शराणां शक्तिः शितिकण्ठकाये शिवशरीरे विषये उपरेमे उपरता तस्य अक्षोभ्यमहिमत्वादिति भावः विभाषाकर्मकात् इत्यस्य वैकल्पिकत्वात् पक्षे आत्मनेपदम् अत्र मालोपमा उमापतिं पाण्डुसुतप्रणुन्नाः शिलीमुखानव्यथयां बभूवुः अभ्युत्थितस्याद्रिपतेर्नितम्बम् अर्कस्य पादा इव हैमनस्य उमेति पाण्डुसुतेन प्रणुन्नाः प्रक्षिप्ताः शिली शल्यं मुखे येषां ते शिलीमुखाः बाणाः उमापतिं शिवम् अभ्युत्थितस्य अभ्युन्नतस्य अद्रिपतेः नितम्बं कटकम् हेमन्ते भवस्य हैमनस्य सर्वत्राञ्च तलोपश्च इति अण्प्रत्ययः तकारलोपश्च अर्कस्य पादाः रश्मयः इव पादारश्म्यङ्घ्रि तुर्यांशाः इत्यमरः न व्यथयाम्बभूवुः मध्ये स्थितस्य असुमतां समूहमर्कस्य इति पाठान्तरे मध्ये स्थितस्य हैमनस्य अर्कस्य पादाः किरणाः असुमतां प्राणिनां समूहम् इवेति न दुःखम् उत्पादयामासुः इति योजना सम्प्रीयमाणो नु बभूव तीव्रम् पराक्रमम् तस्य पतिर्गणानाम् विषाणभेदम् हिमवानसह्यम् वप्रानतस्येव सुरद्विषस्य समिति गणानां पतिः शिवः तीव्रं तस्य अर्जुनस्य पराक्रमं वप्रे रोधसी आनतस्य परिणतस्य तटप्रहारिणः इत्यर्थः सुरद्विपस्य असह्यं विषाणभेदं दन्तप्रहारं हिमवानिव संप्रीयमाणः संहृष्यन् अनुबभूव अनुभवति स्म तस्य अक्षोभ्यत्वात् अनुजिघृक्षुत्वाच्चेति भावः तस्मै हि भारोद्धरणे समर्थम् प्रदास्यता बाहुमिव प्रतापम् चिरं विषेहेऽभिभवस्तदानीम् सकारणानामपि कारणेन तस्मैहीति तस्मै पार्थाय भारस्य भूभारस्य उद्धरणे उद्वहने समर्थं प्रतापं बाहुमिव अवष्टम्भतया इति शेषः अन्यथा भारोद्वहनस्य दुष्करत्वादिति भावः स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् इत्यमरः प्रदास्यता वितरिष्यता कारणानां ब्रह्मादीनामपि कारणेन जनकेन देवेन सह अभिभवः अर्जुनपरिभवः तदानीं चिरं विषेहे सोढः वात्सल्यादिति भावः अथ त्रिभिः भगवदभिप्रायम् आविष्कुर्वन् चतुर्भिः कालापकम् आह। प्रत्याहतौ जाः कृतसत्त्ववेगः पराक्रमं ज्यायसि यस्तनोति तेजांसि भानोरिव निष्पतन्ति यशांसि वीर्यज्वलितानि तस्य प्रत्याहतेति प्रत्याहतौजाः परेण प्रतिहतबलस्सन्नपि कृतसत्त्ववेगः कृतोत्साहातिशयस्सन् यः पुमान् ज्यायसि स्वस्मादपि अधिके पराक्रमं तनोति तस्य पुंसः भानोः अर्कस्य तेजांसीव वीर्येण शौर्येण ज्वलितानि प्रकाशितानि यशांसि निष्पतन्ति उद्भवन्तीत्यर्थः हीनस्य अधिकाभियोगः यशस्करः इति भावः।